एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सत्तायाम् सहकार्यम् कुर्वताम् दलानाम् सहभागितायुतस्य उच्चस्तरीय राजनीतिक संयन्त्रस्य उपवेशेन सर्वकारस्य कार्याणि समीक्षा गठबन्धनस्य सहकार्याय निरन्तरताम् दातुम् सहमतिर्धृता वर्तते। बाल्वाटारवर्तिनी प्रधानमन्त्री निवासे ह्य उपविष्टे संयन्त्रस्य उपवेशे सहकार्यम् इतोऽपि सबलीकृत्य विमर्शनम् निरन्तरम् सञ्चालयितुम् सहमतिरियम् धृतास्ति। उपवेशस्य पश्चात् राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष राजेन्द्र लिङ्गडेन सर्वकारस्य कार्याणि समीक्षा गठबन्धनस्य सहकार्याय नैरन्तर्यम् दातुम् सहमति धृतेति अज्ञापयत्। असौ उपवेशे राष्ट्रिय स्वतन्त्र दलस्य सर्वकारम् प्रत्यनयनस्य विषये विमृष्टम् सदपि राष्ट्रपते निर्वाचनस्य विषयो न विमृष्टा इति च अबोधयत्। उपवेशे प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड, नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली, राष्ट्रिय स्वतन्त्र दलस्य सभापति रवि लामिछाने, राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष लिङ्गडेन च सहभागिनः आसन्। प्रतिनिधि सभाया गतदिवसीयोपवेशे उप प्रधानमन्त्री अर्थमन्त्री च विष्णु प्रसाद पौडेल वर्तमानाय व्ययकस्य मध्यावधि समीक्षा प्रतिवेदनम् प्रास्तौत। उपवेशे समीक्षा प्रतिवेदनमिदम् प्रस्तुवन् अर्थमन्त्री पौडेलः आयव्ययकस्य आकारः प्रतिशतम् चतुर्दशभिः न्यूनीकृतोऽस्तीति अज्ञापयत्। पूर्ववर्ती सर्वकारेण आनीताम् वर्तमानार्थिक वर्षस्य आयव्ययकम् सप्तदश खर्वाणाम् त्रिनवतेः अब्जानाम् च रूप्यकाणाम् आसीत्। न्यूनीकरणात् इदानीम् आयव्ययकस्य आकारः पञ्चदश खर्वाणाम् ऊनपञ्चाशतः अब्जानाम् ऊनशतस्य कोटीनाम् च रूप्यकाणाम् वर्तते। उपवेशे अर्थमन्त्री पौडेलः वर्तमानार्थिक वर्षे राष्ट्रस्य आर्थिक वृद्धेः अंकमान लक्ष्यानुसारेण अष्टौ प्रतिशतम् प्राप्तुम् न शक्नोतीति चर्चयन् अवोचत्। कोविड विषाणोः संक्रमणस्य समये अवलम्बितस्य सहजीकरणस्य यथासमयम् उचित निर्णयनस्य अभावात् सम्प्रति समस्या सृष्टा वर्तते। अर्थमन्त्री पौडेलः राजस्व प्रशासने प्रणाल्याम् च सुधारस्य आवश्यकता पूर्वमेव दृष्टा सत्यपि तन्नाभवदिति प्रतिपादयन् अवदत् वर्तमान सर्वकारः विषयममुम् उच्चैः प्राथमिकतायाम् निधाय कार्यम् कुर्वाणो वर्तते। अर्थमन्त्री पौडेलः अब्रवीत् कृषि पर्यटनयोः सुधारस्य संकेतः दृष्टा सन्नपि उत्पादनमूलक क्षेत्रेषु समस्यानाम् दर्शनात् अर्थतन्त्रे समस्याः विद्यमानाः एव सन्ति। तत्पूर्वम् उपवेशे प्रधानमन्त्रिणः पक्षतः संघीय विषय सामान्य प्रशासन मन्त्री अमनलाल मोदी थारू आयोगस्य चतुर्थम् वार्षिक प्रतिवेदनम् प्रस्तौत। तत्पूर्वम् च उपवेशे सांसदाः देशस्य सामयिकावस्थायाः विषये अवासन्त। सांसदाः रघुजी पन्त, ज्ञानेन्द्र बहादुर साई, चन्द्रकान्त भण्डारी च सामयिक विषयान् आधृत्य अब्रुवन्। प्रतिनिधिसभायाः अपर उपवेश परश्वः फाल्गुनस्य तृतीय दिवसे बुधवासरे पूर्वाह्नस्य एकादशवादने वस्ता। प्रधानमन्त्री नेपाल कम्युनिष्ट पार्टी माओवादी केन्द्रस्य अध्यक्षस्य पुष्पकमल दाहाल प्रचण्ड निगदति मासद्वयस्य पश्चात् दले व्यापकतया रूपान्तरणम् करिष्यते। पेरिस डाँडावर्तिनी दलस्य केन्द्रीय कार्यालये उपविष्टे बागमती प्रदेशे कार्यरतैः केन्द्रीय सदस्यैः सम्मिलिते केन्द्रीय बागमती प्रदेश समन्वय समितेः उपवेशे प्रधानमन्त्री दाहाल दले गुणात्मक सुधारस्य आवश्यकताम् प्रादर्शयत्। प्रधानमन्त्री प्रचण्डः दलस्य स्थायी समितेः उपवेशेन मासद्वयम् संघटनात्मकम् अभियानम् सञ्चालयितुम् निर्णीतमस्ति। अतः परम् सर्वैः नेतृकार्यकर्तृभिः जनतायाः समक्षम् गन्तव्यमिति च प्रत्यपादयत्। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन कैलाली जनपदस्य गेटास्थाने निर्माणाधीनस्य गेटा चिकित्सा महाविद्यालयस्य नेपालस्यैव प्रथम राष्ट्रिय स्वास्थ्य विज्ञान विश्वविद्यालयस्य रूपेण अग्रे वर्धनस्य विषये विमृष्टमस्ति। प्रधानमन्त्रिणा प्रचण्डेन गेटा चिकित्सा महाविद्यालयस्य संरचनायाः विषये सुदूरपश्चिम क्षेत्रस्य विभिन्न जनपदेभ्य प्रतिनिधित्वम् कुर्वद्भिः मन्त्रिभिः सांसदैः विशेषज्ञैः नेपाल सर्वकारस्य मुख्य सचिवेन शिक्षा स्वास्थ्य मन्त्रालययोः सचिवैश्च सह ह्य बाल्वाटारवर्तिनी प्रधानमन्त्री निवासे विमृष्टम् वर्तते। प्रधानमन्त्रिणा प्रचण्डेन अद्यतः विकासायोजनानाम् अनुगमनाय निरीक्षणाय च सुदूर पश्चिम प्रदेशस्य कैलाली कञ्चनपुर जनपदयोः भ्रमणं विधीयमानं वर्तते। सुदूर पश्चिम प्रदेशस्य भ्रमणात् प्राग् ह्य विहिते विमर्शने प्रधानमन्त्री प्रचण्ड गेटा चिकित्सा महाविद्यालयं नेपालस्यैव प्रथम राष्ट्रिय स्वास्थ्य विज्ञान विश्वविद्यालयस्य रूपेण अग्रे वर्धयितुम् उदघोषयत्। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन आत्मनः नेतृत्वस्य सर्वकारेण सार्वजनिक नैज क्षेत्राणां सुदृढीकरणाय अव्यवस्थायाः अन्ताय यूनां षोडव्यानां समस्यानां सम्बोधनाय च बलं प्रदत्तमस्ति इति उक्तं वर्तते। नेपालार्थिक पत्रकार समाजेन ह्य काष्ठमण्डपे आयोजितं कार्यक्रमं सम्बोधयन् प्रधानमन्त्री प्रचण्डः अगदत् सर्वकारः सुशासनस्य समृद्धेश्च नवीन यात्रायाम् अग्रेसरो वर्तते, अत्र च सफलता प्राप्तव्यैव अस्ति। सर्वकारस्य प्राथमिकता न्यूनतम संयुक्ता कार्यक्रमेषु समा विष्टाः सन्तीति ज्ञापयन् प्रधानमन्त्री दाहाल अतः परं परम्परागत रूपेण राष्ट्रे आर्थिक विकासस्य समृद्धेश्च आकांक्षा सफला न भवति, त्यतः अत्र आमूलं सुधारः विधातव्य इति बलं प्रादात्। राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षं निर्वाचनायोगेन स्वकीयं षोडशं वार्षिक प्रतिवेदनं प्रस्तुतं वर्तते। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य आयोजिते कार्यक्रमे प्रमुख निर्वाचन आयुक्तः दिनेश कुमार थपलिया प्रतिवेदनमेतत् प्रस्तोत। तदवसरे राष्ट्रपतिः भण्डारी गतार्थिक वर्षे स्थानीय स्तराणां वर्तमानार्थिक वर्षे प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां च निर्वाचनं सफलतापूर्वकं सम्पादितम् इत्यालक्ष्य आयोगाय धन्यवादम् व्याहरत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः जनयुद्धस्य आधारशिलायां स्थापिताः अधिकाराः उपलब्धयश्च राष्ट्रस्य संयुक्त सम्पत्तयः सन्तीति निगदति। अष्टाविंशस्य जनयुद्ध दिवसस्य अवसरे अद्य शुभकामनाम् अभिव्यज्यमान असौ नेकपा माओवादी दलेन नेतृत्वं विहितं सदपि जनयुद्धं परिचयाधिकार मुक्ति न्याय स्वतन्त्रतानाम् अपेक्षिणां समेषां मुक्तिकामिनां परिवर्तन प्रेमिणां च नेपालीनां संयुक्त दिवसस्य रूपेण विद्यमानम् अस्ति इति प्रत्यपादयत्। अत्रान्तरे सर्वकारेण अद्य फाल्गुनस्य प्रथमे दिवसे जनयुद्ध दिवसस्य रूपेण सार्वजनिकावकाशं दातुं निर्णीतं वर्तते। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य अध्यक्षतायां ह्य उपविष्टेन मन्त्रिपरिषदः उपवेशेन नेपालस्य राजनैतिक परिवर्तनाय जनयुद्धेन प्रापितं योगदानं सम्मान्य अद्य फाल्गुनस्य प्रथमे दिवसे सार्वजनिकावकाशं दातुं निर्णीतमस्ति। गत शुक्रवासरे राष्ट्रपतेः गमनागमन सुरक्षा व्यवस्थापनस्य क्रमे भूतायाः घटनायाः सम्बन्धे सर्वकारस्य वार्ता समूहस्य नेपाल चिकित्सक संघस्य च मध्ये षट्सूत्रीया सहमति धृता वर्तते। वार्ता समूहस्य संघस्य च मध्ये ह्य सम्पन्ने विमर्शने विशिष्ट व्यक्तिनां गमनागमनस्य सुरक्षा व्यवस्थापनावधौ रुग्णानां संवेदनशील संस्थानां क्षेत्राणां च कृते असहजतायाः निवारणत्वेन वर्षद्वय पूर्वस्य विशिष्ट व्यक्तिनां सुरक्षा व्यवस्थापन कार्यविधेः परिमार्जनस्य सम्बन्धे सप्ताहस्य अभ्यन्तरे परामर्शान् प्रस्तोतुं तान् क्रियान्वेतुं च सहमति धृतेति नेपाल चिकित्सक संघस्य अध्यक्ष लोचन कार्की असूचयत्। चितवन जनपदस्य द्वितीय निर्वाचन क्षेत्रे आगामिनो वैशाख मासस्य दशमे दिवसे रविवासरे उपनिर्वाचनं भविता। निर्वाचनायोगस्य ह्य उपविष्टेन उपवेशेन चितवन जनपदस्य द्वितीय निर्वाचन क्षेत्रे आगामिनो वैशाख मासस्य दशमे दिवसे रविवासरे प्रतिनिधिसभायाः सदस्यस्य कृते उपनिर्वाचनं विधातुं निर्णीतमस्ति। चितवन जनपदस्य द्वितीय निर्वाचन क्षेत्रात् प्रतिनिधिसभायाः सदस्यपदे निर्वाचितस्य रवि लामिछाने विधस्य नागरिकता प्रकरणस्य कारणेन सदस्यपदस्य रिक्ति भवनानन्तरं पुनः निर्वाचनं विधीयमानम् अस्ति। इति समाचाराः।